इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। दिल्ली भाजपेति दलस्य उपवेशनम् अद्य नवदिल्ल्यां भविष्यति। उपवेशनेऽस्मिन् भाजपेति दलस्य सर्वेऽपि नवनिर्वाचिताः विधानसभासदस्याः दलस्य वरिष्ठाश्च नेतारः प्रातिभाग्यं विधास्यन्ति। सूत्रानुसारि दिल्लीप्रदेशस्य अग्रिमः अग्रिमा वा मुख्यमन्त्री कः का वा भविष्यतीति विषये अन्तिमः निर्णयः अपि अत्र स्वीकर्तुं शक्यते। मुख्यमन्त्रिणश्च शपथवचनग्रहणं गुरुवासरे भविता। विधानसभानिर्वाचने भाजपेति दलेन सप्ततिः विधानसभासु अष्टचत्वारिंशत् आसनानि सन्ति विजितानि। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः उक्तवती यत् कतरदेशेन सह भारतस्य सम्बन्धाः सुदृढाः शताब्देभ्यश्च पुरातनाः सन्ति। कतरदेशः भारतेन सह पश्चिम एशिया देशानां वाणिज्यिक सांस्कृतिक सम्बन्धयोश्च अभिन्न अङ्गभूतोऽस्ति इति ह्यः सन्ध्यायां राष्ट्रपतिभवने कतरदेशस्य अमीर शेख तमीम बिन हमद अल थानी इत्यस्य स्वागतं कुर्वत्या राष्ट्रपतिमहोदयाया प्रोक्तम्। तया सबलं प्रतिपादितं यत् उभयोर्देशयोः मध्ये बहुविधसम्बन्धानां सम्भावनाः सर्वत्र परिलक्ष्यन्ते। तया एतदपि उक्तं यत् उभौ देशौ व्यापारविनिवेश खाद्यसुरक्षा स्वास्थ्य संस्कृति ऊर्जादिषु क्षेत्रेषु विश्वसनीयौ सहभागिनौ भवितुं शक्नुतः इति। प्राक्तनः युनाइटेड किंगडम इति देशस्य प्रधानमन्त्री ऋषि सुनकः स्वकीयेन परिवारेण सह ह्यः नवदिल्ल्यां प्रधानमन्त्रिणा सह अमिलत्। एकस्मिन् सामाजिक प्रसारतन्त्रजाले प्रसारिते सन्देशे प्रधानमन्त्रिणा नरेन्द्रमोदिना कैश्चित् चित्रैः सह उक्तं यत् सम्मेलनमिदम् अत्युत्तमरीत्या विभिन्नेषु विषयेषु चर्चायै सुकरं कारणं जातमिति। सहैव हि तेन उक्तं यत् श्रीसुनकः भारतस्य महत्तमं मित्रमस्ति। सः भारतेन सह यूके इति देशस्य भविष्ये जायमानेभ्यः सम्बन्धेभ्यः उत्तमं सोपानं भविष्यतीति। अमेरिका रूसदेशयोः अधिकारिभिः ह्यः सौदी अरबेति देशस्य रियाद नगरे चतुर्होराधिककालाय संवादो विहितः। यो हि यूक्रेन देशस्य युद्धावरोधाय तयोर्देशयोः प्रथमा चर्चा आसीत्। उभावपि देशौ सिद्धान्तचतुष्टयेषु सहमतौ अभवताम्। अमेरिकादेशस्य विदेशमन्त्री मार्को रूबियो उक्तवान् यत् उभे राष्ट्रे वाशिंगटन मॉस्को इत्यत्र स्वस्व कार्यक्षमतानुसारं आत्मानं पुनर्स्थापनाय सहमते अभवताम् इति। प्रधानमन्त्रिणा नरेन्द्रमोदिना असमप्रदेशस्य जोगीघोपा इत्यत्र ब्रह्मपुत्रनदस्योपरि अन्तर्देशीय जलमार्गपरिवहन इत्यस्य उद्घाटनं विहितम्। तेन विषयेऽस्मिन् उक्तं यत् पदक्षेपोऽयम् अस्य क्षेत्रस्य प्रगतिसमृद्धिभ्यां सह आधारभूतसंरचनायाः परिष्कारदिश्यपि महत्वपूर्णमस्तीति। महाकुम्भस्य विषये उत्तरप्रदेशप्रशासनेन आयोजनमिदं शिवरात्र्यनन्तरमपि वरिवर्धिष्यतेति इत्यस्याः मिथ्यासूचनायाः सबलं खण्डनं विहितमस्ति। कश्चित् सामाजिकसञ्चारतन्त्रेषु प्रसार्यमाणाः सूचनाः निराधाराः मिथ्याश्च सन्तीति मेलाप्राधिकरणेन प्रयागराजमण्डलाधिकारिणा रवीन्द्रमन्धाण इत्यनेन उक्तम्। आईसीसी चैम्पियन्स ट्रॉफी इत्याख्यस्य नवमं संस्करणं क्रिकेटक्रीडायाः अद्यापराह्णे शुभारम्भो भविता, यत्र साम्प्रतिकं पाकिस्तानाख्यं विजेतृदलं न्यूजीलैण्ड इति दलेन सह क्रीडिष्यते। प्रथमः संघर्षः भारतीयसमयानुसारं सार्धद्विवादने भविष्यतीति निश्चितमस्ति। भारतीयदलं च रोहितशर्मणः नेतृत्वे श्वः दुबईनगरे बांग्लादेशेन सह प्रथमं संघर्षं क्रीडिष्यति इति निश्चितमस्ति, यत्र भारतम् अस्य संस्करणस्य विजयाय शुभारम्भो विधास्यति इति वार्ताः।